येन धौता गिरत्पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॐ शान्ति शान्ति शान्तिः सर्वेभ्यः नमः महोदय
सर्वेभ्यो नमः धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति हल् सन्धिः वर्तमानः सन्धिः नाम यस्य विषये इदानीं नाम गतवर्गे अपि अस्मिन् वर्गे पठामः तदस्ति न्यमुडागमसन्धिः इति तत्र पुटसङ्ख्या तत्र गीताप्रवेशे पुटसङ्ख्या अस्ति नवत्रिंशत्तमे पुटे तत्र उदाहरणानि दत्तानि सन्ति तर्हि तत्र अपि प्रायशः तत्र सारल्यार्थं तत्र वाट्सप् मध्ये अपि तत्र कानिचन उदाहरणानि प्रेषितानि तदपि एकवारं पठित्वा तत्र केवलं पुनस्मरणार्थं तत्र कीदृशं भवति इति कृत्वा तानि पठित्वा तदनन्तरं पुस्तके यदस्ति तत् पठामः तर्हि तत्र शोभाभगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनी तर्हि तत्र उषा श्रीनिवासन भगिनी भवती एव आरम्भं करोति वा तत्र गीतासोपान वाट्सप् मध्ये एकं चित्रमस्ति भगिनि प्राप्तवती वा
ओके अन्यानि उदाहरणानि गच्छन् योगः अस्ति गच्छन् नस्ति इति अस्ति गच्छन् नस्ति इति ङमो ह्रस्वात् अचि ङमुट् नित्यम् इत्यनेन गच्छन् योगः अस्ति इति कृते अकारस्य पूर्वं नकार आगमः भवति यतोहि गच्छन् इति कृते ङमो ह्रस्वात् सो नकारः गच्छन् इति नकारः ङम् प्रत्याहारे अस्ति ङम् ङमो ह्रस्वात् अचि ङमः ह्रस्वात् अस्ति चकार उत्तरवर्ति आकारः ह्रस्वः सो चकार उत्तरवर्ति अकारः नकारः अनन्तरम् अकारः अस्ति ङमो ह्रस्वात् अचि अचि अस्ति अकारः ङमुट् नित्यम् इति कृते ङम् आगमः भवति नकार आगमः भवति नकारः अकारस्य कृते विधीयते नकारात् पूर्वं विधीयते यतोहि आगम ङमुट् इति अस्ति टित् अस्ति सो अकारस्य पूर्वम् अस्ति गच्छन् नास्ति इति भवति
ओ उत्तमं भगिनि धन्यवादः
धन्यवादः
अस्तु समीचीनम् अस्तु अग्रे तत्र वेदा भगिनी अग्रे
महोदय एकनिमिषं वाट्सप् मध्ये अस्ति सर्वस्मिन्
पुस्तकमस्ति चेत् अपि तत्रापि अस्ति
तत्रापि अस्ति वा पुस्तके
सन्धिपुस्तकं सन्धि इति पुस्तकम्
ओ न न तद् नास्ति सर्वस्मिन् योग अपि
महोदय कस्मिन् पृष्ठे अस्ति सन्धि इति पुस्तके
एकनिमिष भगिनि तत्र एकनिमिष भगिनि दृष्ट्वा वदामि
क्षम्यतां
न चिन्ता मास्तु तत्र स्वरः परस्वरेण
धन्यवादः
नमो ह्रस्वादति एकनिमिषं महोदय तत्र किमस्ति वाट्सप् ओ सर्वस्मिन् योग अपि तत्र एतत् सूत्रं किं वदति नमो ह्रस्वाद् अचि इत्युक्ते पूर्वं ह्रस्व ङकारस्य पूर्व ह्रस्ववर्णः अस्ति अपि च ङकारः अस्ति ङमङ्गणनं तत्र यकार ङकारः अस्ति ङकारस्परे अचुवर्णः अस्ति तदेव तत्र एतत् सूत्रं कार्यं करोति, ङमो ह्रस्वादचि इति सूत्रं कार्यं करोति. तत् सूत्रेण किम् आयाति इत्युक्ते, ङकारस्य स्थाने नो ङकार तत्पश्चात् ङकारस्य आगम भवति, तत्र आगम भवति, तदेव तत्र सर्वस्मिन् योगः नकारस्य, ओ सारी, तत्र नकार अस्ति, नकारस्य आगम भवति सर्वस्मिन् नपि, न नकार योग न भवति सर्वस्मिन् नपि इति आयाति. नकार ङ ण न एते त्रयः वर्णाः ङमुगाडगमसन्धि तत्र तस्य आगमनं भवति, आगमः भवति. यदि पूर्ववर्णः ह्रस्व अस्ति चेत् अपि च परवर्णः अच्वर्णः अस्ति चेत् तत्र अच्वर्णस्य पूर्व नकारस्य नकारय ङकारस्य आगमः भवति.
ङमुडागमः समीचीनं भगिनि, अस्तु उत्तमम्. अस्तु अग्रे तत्र शोभा भगिनि अग्रे.
आं महोदय, तिर्यङ् योगः अत्र इति, तत्र तिर्यङ् इत्यत्र अनुनासिकवर्णः अस्ति, कवर्गीय अनुनासिकवर्णः ङ इति, तस्मात् पूर्वं ह्रस्व स्वरः अस्ति अकारः. तस्मात् इत्युक्ते तत्र सूत्रं वदति, ह्रस्वात् स्वरात् परः यः नम् तदन्तात् पदात् उत्तरस्य अचः, अतः तदन्तात् पदात् उत्तरस्य अवर्णः अच् वर्णः अस्ति. तस्य अनुनासिक तस्य णमुट् आगमो भवति इति. अतः तत्र इदानीं निमित्तमस्ति ह्रस्वाकारः नकारात् पूर्वं परवर्णः अचुवर्णः अस्ति, अपि च नकारः नकारः तस्मात् परम् अचुवर्णः अस्ति, तस्य अकारस्य नम् इति आगमः भवति. इदानीं तत्र कवर्गीय अनुनासिकवर्णः, अतः तदेव वर्णः आगमरूपेण अकारात् पूर्वम् आगच्छति. तत्र नम् इति, तर्हि तत्र तिर्यङ् अत्र इति भवति, नकारद्वयं तिर्यङ् अत्र इति अन्तिमरूपम्.
किञ्चित् क्लिष्टकरम् उच्चारणं खलु भगिनि.
आम्,
नकारः णकारः साधारणतया सुलभतया वदा उच्चारितुं शक्नुमः, किन्तु एतद् समीचीनं. तत्र तिर्यङ् इति पदं न परिचितं, तत्र कोऽपि जानाति
वा? तिर्यङ् इत्युक्ते तत्र
द फुड् गो स्ट्रैट्, द तिर्यङ् इति द हरिजाण्टल् थिङ्ग् महोदय.
तत्र चतुष्पाद अपि इति अपि अस्ति वा भगिनि? तिर्यङ् इत्युक्ते चतुष्पाद मृगाः इति किमपि अस्ति?
मृगाः, बिकास् दे फुड् गोस् horizontally instead of for us vertical. So this is the tiryang is horizontal.
Dhanyavada bhagini. Astu astu, tarhi tatra tiryang atra ityukte atra pashu asti iti va?
Yeah, chatushpada like what she says, Shobha bhagini says. But
tiryang atra. Astu astu, dhanyavada. Etat padam parichitam asti. Astu, dhanyavada. Uttamam. Astu, agre tatra उषा दिवते भगिनि अग्रे.
आं महोदय, स्वस्मिन् योगः एव, स्वस्मिन् पदस्य नकारात् पूर्वम् अकारः अस्ति, अपि च पूर्व परपदस्य प्रथम अक्षरः अस्ति एकारः. ह्रस्वात् नम नमः पदात् नमुट् अचि नित्यं संहितायाम् इति सूत्रेण तत्र नकार आगमरूपेण नकार आगच्छति, अतः स्वस्मिन्नेव इति रूपं सिद्धयति.
स्वस्मिन्नेव, इदानीं भगिनि तत्र यथा भवती उक्तवती तत्र शत्रन्तरूपम् आधिक्येन दृश्यते अपि सप्तमी सप्तमी अस्मिन् स्वस्मिन्
एकस्मिन्
अतः तत्र सप्तमी अपि शत्रन्तरूपं
परन्तु स्त्रीलिङ्गे न भवति न महोदय
सत्यं भगिनि यत् यतोहि याम् इति भवति खलु नद्यां लता याम् इति तत्र नकारः
अस्ति
हा अपि मकारः अन्ते याम् याम् इति सत्यं अस्तु अग्रे तत्र उषा श्रीनिवासन् भगिनि
स्वामिनाथन् रे
स्वामिनाथन् क्षम्यतां धन्यवादः
महोदय
क्षम्यतां भगिनि क्षम्यतां क्षम्यतां
लिखन् तत् महोदय तपस्विन् तपस्विन् योगः एहि तपस्विन् योगः एहि ए इति अच्वर्णः अस्ति नकारस्य परः नकारात् पूर्वम् इकारः ह्रस्व इकारः अस्ति सो ङमो ह्रस्वात् अचि ङमुट् नित्यम् इत्यनेन नकारः एकारात् पूर्वम् अन्य नकारः अपि युक्तः तपस्विन् नेहि इति भवति
तपस्विन् नेहि अस्तु तत्र एहि इति तत्र लोट् लकार इति मन्ये खलु
लोट् लकार मध्यम
अस्तु समीचीनं धन्यवादः भगिनि
धन्यवादः
अग्रे इदानीं वेदा भगिनि
लिखन् योगः एव तत्रापि एतत् सूत्रं ङमो ह्रस्वादि अचि ङमुण् नित्यम् इति सूत्रं कार्यं करोति किमर्थं चेत् अनुनासिकवर्णनकारस्य पूर्वं ह्रस्व अच्वर्णः अस्ति अपि च परम् अपि अच्वर्णः अस्ति ए इति अस्ति इति कारणतः ङमो ङम् वर्ण प्रत्याहारस्य वर्णस्य पूर्वं ह्रस्व अस्ति परम् अच्वर्णः अस्ति इति कारणतः ङमुण् इति आगमः भवति तदेव तत्र लिखन् पुनरपि एकवारं नकार एव आयाति आगमः इति उक्तं तदेव लिखन् योग नकार योग एव लिखन् नेव इति रूपम् आयाति
समीचीनं भगिनि अस्तु इदानीं शोभा भगिनी अग्रे
आं महोदय हसन् योगः अस्ति तत्र हसन् नकारः नकारात् पूर्वम् अकारः ह्रस्वस्वरः परवर्णः अच्वर्णः अतः सूत्रम् अस्ति नमो ह्रस्वादशि नमुट् नमुण् नित्यम् इति तेन तत्र अकारस्य आगमः अस्मिन् प्रसङ्गे नकारः अतः लिखन् योगः नकारः योगः एव लिखन्नेव इति भवति
समीचीनं भगिनि इदानीं उषा दीयते भगिनि
हसन् योगः अति हसन् इति पदस्य
कृतं भगिनि
ओ अहं प्रायशः हसन् करणीयम् आसीत् क्षम्यतां महोदय हसन् अस्ति इति ओ अस्तु भवती करोतु
भवती हसन् अस्ति इति न कृतवती वा
न अहं लिखन् कृतवती प्रायशः वेदा भगिन्या कृतं क्षम्यतां महोदय हसन् अस्ति इति अथवा भवती करोति चेदपि सम्यक् एव
भवती करोतु तदनन्तरं तत्र उषा भगिनी
शर्मन्
इति
अस्तु हसन् योगः अस्ति तदेव तत्रापि अन्ते नकारः पदान्तनकारः तस्मात् पूर्वं ह्रस्वस्वरः अकारः परे पुनः अच् वर्णः अतः अकारस्य आगमरूपेण अन्यत् नकारः अनुनासिकवर्णः नकारः आगच्छति अतः हसन्नत्ति इति भवति रूपम् अद् धातुः तत्र इति मन्ये अत्ति इति भवति
किं कः धातुः
अद् इति मन्ये महोदय
अस्तु अस्तु
इति मन्ये.
समीचीनं. हा तर्हि तत्र हसन् अति तर्हि तत्र क्रियापदद्वयम् अत्र
तत्र
तत्र गच्छन् अस्ति इति अस्ति
तत्र शत्रन्त तत्र तत्रापि शत्रन्त अपि च हसन् हसति
अति क्रियापदम्
अति इति क्रियापदं
क्रियापदम् अस्तु समीचीनं.
भक्षणे अस्ति सः हसन्
खादति इति हसन् खादति अस्तु
हसन् खादति
अस्तु समीचीनम् अस्तु अग्रे उषादिवते भगिनि.
शर्मन् योगः अधीः शर्मन् इति पदस्य अन्ते नकारः अस्ति नम् प्रत्याहारे अस्ति तस्मात् पूर्वम् अकारः अस्ति ह्रस्व अकारः ह्रस्व अकारः अपि च परपदस्य प्रथमवर्णः अच् प्रत्याहारे अस्ति अकारः अतः ह्रस्वात् नमः पदात् नमुट् अचि नित्यम् इति सूत्रेण आगमरूपेण नकार आगच्छति अतः शर्मन्नदीः इति रूपं सिद्धयति.
तत्र अदीः इति पुनः डोट्लकारः
मध्यमपुरुषः
तत्र क्रियापदम्
अधीते इति
सत्यं अधीते इति तस्य लोट्लकार मध्यमपुरुषः अधीः अधीः इति समीचीनं. हा उषास्वामिनतन् भगिनि अग्रे
महोदय. तस्मिन् योगः इति तस्मिन् योगः इति इकारात् पूर्वं नकारः आयाति तस्मिन् निधि इति भवति तस्मिन् इति निर्दिष्टे पूर्वस्य
तस्मिन्निति समीचीनं भगिनि. अस्तु इदानीं वेदा भगिनि.
उदङ्ग् योगः इह उदङ्ग् इह तत्र ङकारस्य प्रथमपद पदे ङकार अस्ति तत्पूर्वं ह्रस्ववर्ण अस्ति ह्रस्व स्वर अस्ति तत्पश्चात् ईकार अच्वर्णः अस्ति इति कारणतः ञमु ह्रस्वादचि ञमुङ् नित्यम् इति सूत्रेण तत्र ङकारस्य आगमः भवति उदङ् अपि च पुनरेकवारं ङकारस्य आगमः भूत्वा ङकार आयाति ङ ईह ङिह ङिह उदङ्गिह ङिह इति रूपम्
समीचीनं. समीचीनं भगिनि अस्तु शोभा भगिनि अग्रे.
आं महोदय. तस्मिन् योगः एतस्मिन् तस्मिन् इति पदान्ते नकारः अनुनासिकवर्णः तस्मात् पूर्वं ह्रस्वस्वरः इकारः तस्मात् परम् एकारः अच् वर्णः अतः एकारस्य नकारागमः भवति तस्मिन् योगः नकारः योगः एतस्मिन् तस्मिन् एतस्मिन् इति भवति. पुनः वदामि क्षमतां नमो ह्रस्वादचि नमुन् नित्यम् इति सूत्रेण.
समीचीनम् अस्तु विषाधिपते भगिनि.
तत्र तस्मिन् तस्मिन् एतस्मिन् इति पदम् अत्र कः आगच्छति महोदय? तस्मिन् इत्युक्ते तस्मिन् समये योगः
तत्र तस्मिन् एतस्मिन् वृक्षे अपि तत्र तस्मिन् एतस्मिन् अपि किमपि अस्ति अथवा तत्र नाम स्थलद्वयं
तत्र अत्र इति अर्थे
तस्मिन् एतस्मिन्
अपि इति वदामः चेत् तस्मिन् एतस्मिन् अपि
भवेत्. अग्रे तत्र वाक्यं न दत्तम् अतः न जानीमः प्रयोगः कीदृशः भवति किन्तु प्रायः अपि इति भवेत् अथवा च इति भवेत् अग्रे.
पूर्वस्मिन् योगः ईश्वरे पूर्वस्मिन् ईश्वरे पूर्वस्मिन् पदस्य अन्ते नम् प्रत्याहारवर्णः नकार अनुनासिकनकारः अस्ति तस्य तस्मात् पूर्वं ह्रस्व अकारः अस्ति ईश्वरे पदस्य पदे प्रथमवर्णः अस्ति अच् प्रत्याहारे ईकार ह्रस्वाद् नमः पदा नमुट् अचि नित्यम् इति सूत्रेण आगमरूपेण अन्यत् एक नकारः आगच्छति अतः पूर्वस्मिन् योगः नकारयोः ईश्वरे पूर्वस्मिन्नीश्वरे इति रूपम् आगच्छति
तत्र पूर्व तत्र तस्मिन् इति पदस्य प्रथमाविभक्ति तत्र सः इति भवेत् खलु
पूर्वस्मिन् समये इति
सत्यं सत्यं किन्तु पूर्वस्मिन् इति बहुवारं श्रुतं किन्तु पूर्वस्मिन् इति तस्य प्रथमविभक्तिरूपं किम् इति कोऽपि जानाति वा
द्रक्ष्यामि महोदय
अस्मिन् पूर्व पूर्वशब्दस्य इति सर्वनामशब्दमस्ति चेत् पूर्वस्मिन् तत्र
सर्वनामशब्दे एव भवेत् खलु
कारान्तपुल्लिङ्ग पूर्व इति दिशशब्दस्य पूर्वस्मिन् इति अस्ति महोदय अकारान्तपुल्लिङ्गः पूर्वशब्दः ईस्टर्न् डिरेक्षन् पूर्वस्मिन्
अस्तु अस्तु भगिनि
धन्यवादः
पूर्वः पूर्वौ पूर्वे अनन्तरं पूर्वं पूर्वौ पूर्वान् पूर्वेण रामेण रामशब्दः इव परन्तु प्रथमा विभक्ति बहुवचनं द्वयोः रूपम् अस्ति पूर्वे अथवा पूर्वाः
ओके
अनन्तरं पञ्चम
विभक्ति
पञ्चमी विभक्ति अपि पूर्वस्मात् अपि च पूर्वात् इति अपि अस्ति अनन्तरं सप्तमी अपि पूर्वस्मिन् अथवा पूर्वे अपि
अस्ति
रूपद्वयं भवति महोदय
अस्तु धन्यवादः भगिनि अतः एव पूर्वे इति प्रायश भवेत् किन्तु पूर्वस्मिन् यतोहि तत्र
दिशः
किं भगिनि
पूर्वपराथिङ्ग् लैक् दाट् नो द सर्वनाम दिस् वन्
पूर्व अपि
पूर्वपरावर उत्तरो समथिङ्ग् ऐ फर्गॉट दिस् वर्ड्स
अस्तु 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 पूर्वपश्चिम उत्तर
दक्षिण इति योजितं खलु महोदय सम्पूर्णपदमेव तत्र परिवर्तनं भवति वा अथवा
पूर्वस्मिन् इति
सप्तमी विभक्ति रूपं भगिनि तत्र समस्तपदं नास्ति
समस्तपदं नास्ति वा
तत्र नास्ति भगिनि
अव्ययपदमपि नास्ति वा यतोहि
सप्तमी विभक्तिरूपं विशेषणमस्ति तत्र ईश्वरे इति
भवतः प्रश्नः किम् आसीत् तत्र अन्याः विभक्तिः कथं भवन्ति
प्रातिपदिकमपि प्रथमविभक्तिरूपं किम्
इत्युक्ते प्रातिपदिकं किं भवति तत्र
पूर्व
इति भवति चेत् पूर्वस्मिन् अस्तु अस्तु
साधारणतया पूर्व इति रामशब्दवत् अकारान्त पूर्वे इति भवति
तत्र पूर्व इत्यस्य पूर्वस्मिन् इति तु न भवति तत्र सर्वत्र एतस्मिन् इति अस्ति खलु महोदय तत्र एतद् इति प्रातिपदिकं तस्य सप्तमी एतस्मिन् इति भवति
सत्यं
पूर्व इति सर्वनामशब्दः तत्र तेन सह अस्मिन् इति योजितम् अस्ति खलु तत्र
इति एवं मम आरम्भे मम चिन्तनम् ओ अस्तु अस्तु एतत् पदं जानामि एतदेव इति किन्तु तादृशं न कर्तुं शक्नुमः खलु नाम पूर्वयोगः अस्मिन् इत्युक्ते तर्हि प्रथमाविभक्तिरूपे किं भवति पूर्वयोगः सः पूर्वसः इति भवति खलु
अस्तु अस्तु महोदय
नाम नामपदस्य सप्तमीविभक्तिरूपम् अस्ति चेत् प्रथमविभक्तिरूपमपि भवेत् खलु
सत्यं सत्यं
तर्हि अस्मिन् पूर्वस्मिन् इति अस्ति चेत् अपि समस्तपदमस्ति इति चिन्तयामश्चेत् तर्हि पूर्वयोगः अस्मिन् तर्हि तत्र तस्य प्रथमाविभक्ति भव किं भवेत् इत्युक्ते अस्मिन् इति तत्रैव परिवर्तनं भवेत् किन्तु अस्मिन् इति
सर्वस्मिन् सर्वस्मिन् इति अपि अस्ति खलु.
हा तत्रापि भगिनि नाम तत्र
पूर्वस्मिन् इति महोदय पूर्वस्मिन् इति समासः अस्ति चेत् पूर्वयोगः तप् अपि भवति खलु.
तदपि भवितुं तदपि भवितुम् अर्हति भगिनि किन्तु यतोहि तत्र शब्दकोशे दत्तमस्ति तर्हि एतदपि भवति खलु सर्वनाम पदमपि अस्ति इति जानीमः. तत्र
किं निर्धारितम् अन्ते कीदृशं पदं
नाम पूर्व इति सर्वनामपदमपि अस्ति शब्दकोशे.
आम् आम्
उषास्वामिनाथन् भगिनी उक्तवती तत्र शब्दकोशे दत्तं पूर्व इति
अकारान्त पुल्लिङ्ग पूर्व इति दिशा ईस्टर्न् डिरेक्षन् पूर्व पूर्वशब्द पूर्वः पूर्वौ बहुवचनं पूर्वे अपि च पूर्वाः द्वयोः रूपमस्ति रूपद्वयम् अस्ति अपि च पञ्चमी विभक्ति सप्तमी विभक्ति अपि रूपद्वयम् अस्ति. पञ्चमी विभक्ति पूर्वस्मात् आल्सो पूर्वात् अस्ति. सप्तमी विभक्ति अपि पूर्वस्मिन् अपि च पूर्वे
अस्तु भगिनि
प्रायः रामशब्दवत् परन्तु रूपद्वयं भवति.
अपि पूर्वः इति अन्यः अर्थः अपि अस्ति खलु नाम पूर्वः परः इति.
आं महोदय
एतद् भिन्नम् अस्ति खलु यतोहि धिक् इति अर्थः न तु तत्र यथा वयं तत्र भीमः अर्जुनः इति परः पूर्वः इति तादृश अर्थे नास्ति. अतः एव
सूत्रमस्ति पूर्वपरा दक्षिणोत्तरा पराधराणि व्यवस्थायाम् असंज्ञायाम् इति सूत्रमस्ति. तत्र तत् सूत्रेण एकवारं सर्वनामसंज्ञा भवति एकवारं सर्वनामसंज्ञा न भवति तदेव तत्र रूपद्वयम् आयाति.
पुनः सूत्रं
पूर्वपरावर दक्षिणोत्तरा पराधराणि व्यवस्थायाम संज्ञायां तत् सूत्रमस्ति प्रथमाध्याये प्रथमपादे चतुर्त्रिंशत् सूत्रम्.
धन्यवादः.
एते शब्दाः संज्ञा भिन्नरूपेण मर्यादां दर्शयितुं प्रयुज्यन्ते चेत् जस् प्रत्यये परे इति किमपि अस्ति. अस्तु
करेक्ट् करेक्ट्
महोदय. आम् 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 तदेव ज्ञातुम् इष्टवती महोदय किं
सत्यं भगिनि अहमपि तत्र किञ्चित् भागमासीत् ओ एतत् पदं जानामि एव खलु इति अन्यभागे न एतत् पदं न जानामि इति क्लेशः आसीत् अतः एव अहं पृष्टवान् तत्र पूर्वस्मिन् इति नूतन
बहुत्र पश्यामः शृणुमः पूर्वस्मिन् इति.
इदानीम् अद्य ज्ञातवन्तः. उषास्वामिनाथन् भगिनी धन्यवादः. नाम तत्र एकस्मिन् अपि पूर्वस्मिन् सर्वस्मिन् अन्यस्मिन् सर्वत्र सर्वनामपदम् इति कृत्वा प्रायश तत्र एतद् रूपं भवति इति मन्ये.
तत्र अपरस्मिन् अपि अस्ति महोदय
अपरस्मिन् अपरः सत्यं भगिनि सत्यं भगिनि उत्तमं अतः एतदपि ज्ञातवन्तः अद्य समीचीनम्. अस्तु तर्हि कुत्र स्मः कः
अहं पठितवती
उषादेवते भगिनि पठितवती. अस्तु इदानीं तर्हि तत्र अशोभा भगिनि भवती एव.
आम् अत्र एकस्मिन् इति अस्तु एकस्मिन् योगः अम्बुजे इति तत्र अम्बुजा इत्युक्ते कमलम् इति अर्थः भवति. अम्बु इत्युक्ते किं तत्र जलं तेन जायते इति अम्बुजः एकस्मिन् इति तत्र पदान्ते नम् प्रत्यहारस्तवर्णः नकारः तस्मात् पूर्वं ह्रस्व इकारः तत्र पदान्तात् उत्तरपदम् उत्तरवर्णः आ इति अच्वर्णः अतः एकस्मिन् योगः अम्बुजे इति इति स्थित्यां नकार आगमः भवति अकारस्य, अकारस्य नकार आगमः एकस्मिन् योगः नकारः अम्बुजे एकस्मिन् अम्बुजे इति भवति.
समीचीनं भगिनि, तत्र सर्वत्र आगमः न तु आदेशः
आम्
इति एव तत्र नूतनं. अस्तु समीचीनम्. अस्तु अग्रे तत्र उषास्वामिनाथन् भगिनि.
अपरस्मिन् योगः औषधे, अपरस्मिन् अन्तिमनकारः ङम् प्रत्याहारे अस्ति, ङम् ह्रस्वात् परः अस्ति, अनन्तरम् औ इति अचि अस्ति, औ इति ङमो ह्रस्वात् अचि ङमुत् नित्यम् इत्यनेन नकारः इति आगमरूपेण औ पूर्वम् आयाति. सो अस्मिन् नौ शदे इति भवति.
अस्मिन् औषधे. समीचीनं भगिनि. अस्तु धन्यवादः. वेदा भगिनी.
रुदन् आयातः, तत्रापि नकार अस्ति, पूर्वपदे पूर्व अक्षरम् अस्ति, स्वरः अस्ति अकारः, ह्रस्व अकारः, अपि च परम् अस्ति आकार अचुवर्णः अस्ति इति कारणतः ङमो ह्रस्वादचि ङमुण् नित्यम् इति सूत्रेण तत्र तत् सूत्रं तत्र कार्यं करोति. तदेव तत्र नकारस्य आगमः भवति, रुदन् योग नकारयोग आयातः रुदन्नायातः इति
रुदन्नायातः इति तत्र आयातः इति तत्र किमस्ति? तत्र
आयातः इत्युक्ते आयात निर्यात हिन्दी इत्यस्य एक्स्पोर्ट् आयात तद्वा
भवेत्. तत्र आयाति इति
आयातः इति तत्र प्रत्ययः अस्ति वा महोदय?
कर्मणि
न आयातः इति अस्ति
वा? अन्ति तत्
शुभभगिनी भवत्याः प्रश्नः न अवगतः पुनः.
तत्र आयातः इति ता प्रत्ययः अस्ति वा? आयातः बालकः
तीतः अन्ति इत्येव अहमपि रुदन् आयात् तीतः द्विवचनम् द्विवचनं भवति रुदन् आयातः रुदन्
तत्र या इति धातुं दृष्टवती महोदय, ता प्रत्ययः यातः इति भवति.
यातः अस्तु,
यातः इत्युक्ते यः तत्र अर्थः अस्ति प्रापणे इति, या प्रापणे इत्युक्ते यः प्राप्तवान् इति यातः इति भवति पुंलिङ्गे. आयातः इत्युक्ते तत्र आ इति उपसर्गस्य योजनेन रुदन् आयातः इति तत्र
अस्तु अस्तु भगिनि आगच्छति रुदन् आगच्छ बालकः रुदन् आगतः इति खलु इति उक्तवती
ता प्रत्ययः तत्र
तर्हि रुदन् आगतः
याति इति अपि अस्ति खलु याति
नास्ति भगिनि. किमर्थं चेत् यत्र त प्रत्ययः अस्ति तत्र विशेषणरूपेण आयाति न तत्र
तर्हि तत्र सत्यं भगिनि विशेषणमेव पुल्लिङ्गरूपं
तत्र कुत्र अस्ति विशेषणरूपेण रुदन्नायातः इत्यनेन वाक्येन?
रुदन् कीदृशः बालकः इत्युक्ते रुदन् आयातः बालकः इति.
ओ ओके,
नाम बालकः रुदन् आगतः, नाम सः आगतः आयातः इति आगच्छति इति खलु भगिनि?
तथापि भवति महोदय, यतोहि तत्र आयान्ति आयान्ति इति श्रुतवती गीता, भगवद्गीतायां यान्ति इति कृष्णः वदति, अतः तत्र
या इति द्वितीयगणप्राप्नोति
प्राप्नोति महोदय. अत्रापि प्रापणे एव अस्ति, प्रापणे एव अस्ति, रुदन् आयातः इत्युक्ते तत्र प्रापणे कथं भवति महोदय? रुदन् आयातः इति
न आ इति उपसर्गः अस्ति खलु भगिनि?
सत्यं, किन्तु
तत्र अष्टाध्यायी मध्ये दत्तम् आ योगः या आ इति उपसर्ग अर्थः दत्तः
ओ अर्थपरिवर्तनं भवति तत्र
तत्र आयोगः यथा आगच्छति गच्छति आगच्छति तत्र विपरीतति अतः तत्र आयोगः या इत्युक्ते आना इति दत्तम्
अस्तु अस्तु तर्हि रुदन् आगच्छति इत्युक्ते रुदन् आगतः इति अपि
तत्र प्रयोगः या जाना प्रयाणः इति वदामः खलु तत्र तत् प्रयोगः प्र उपसर्गः जाना किन्तु प्रयाणः इति तर्हि अत्र आयोगः या आना इति दत्तं तर्हि वेदभगिनी समाधानं प्राप्तं वा?
आं महोदय, वाक्यमस्ति चेत्
सुलभतया अवगम
कष्टं भवति, परन्तु
नाम मम मनसि एतावत् तत्र पूर्वम् उदाहरणे किम् आसीत् तत्र शत्रन्तक्रियापदं तदनन्तरम् अन्यत् क्रियापदम् आसीत् नाम तत्र हसन् एति इति तत्र क्रियापदद्वयम् एकं शत्रन्तरूपम् एकं साधारण लकारक्रियापदं किन्तु अत्र शत्रन्तयोग तत्र नामपदमेव अस्ति नामपदमेव अस्ति अतः एव तत्र किञ्चित् भ्रमः आसीत् तत्र क्रियापदं वा अथवा नामपदं वा इति
महोदय एकम् उदाहरणं प्राप्तं वदामि वा?
वदतु वदतु भगिनि.
तत्र मोहमुद्गरे भगिनी पृष्टवती मोहमुद्गरे भजगोविन्दे शिशिरवसन्तौ पुनरायातः इति अस्ति तत्र तु तत्र तु प्राप्रत्ययः नास्ति द्विवचने अस्ति
तदेव अहं चिन्तितवती द्विवचने इति
सत्यं भगिनि किन्तु द्विवचने अस्ति चेत् तत्र रुदन्
रुदन् इति न भवति
न परन्तु वाक्ये किं तस्य उपयोगं कृतवान् इति चिन्तनं
सत्यं भगिनि नाम रुदं रुदन् आयातः बालकः
तद् अस्ति चेत् समीचीनं तप्रत्ययः
सत्यं भगिनि सत्यम् अस्तु तर्हि तर्हि तत्र
कस्मिन्
तत्र वेदभगिनी भवती एव खलु इदानीं
कृतवती महोदय रुदन् आयातः कस्मिन् इह तपि तदपि सेम् किं वदामि नकारस्य पूर्वं ह्रस्व स्वर अस्ति परे
उषाधिपते भगिनि उषाधिपते भगिनि
भवती एव
न तर्हि किं वेदभगिनी भवती एव करोतु तर्हि
कस्मिन् इह तत्र नकारस्य पूर्वं ह्रस्व अचुवर्णः ह्रस्वस्वर अस्ति परे अचुवर्णः अस्ति इति कारणतः ये ञमो ह्रस्वादचि ञमो दत्यमिति सूत्रेण तत्र कस् नकारस्य आगमः भवति कस्मिन् योग नकार योग इह कस्मिन्निह इति रूपं निष्प महोदय ञमुन् इति आगमः भवति न ञमुन् तत्र ञमुन् इत्य प्रत्याहारे किं किं वर्णाः सन् ञ न वा म नास्ति वा तत्र ञमङ्गणि
अस्ति अस्ति मकारः नास्ति मकारः नास्ति केवलं कवर्गीय पवर्गीय तवर्गीय अनुनासिकव्यञ्जनानि
ओ अस्तु ओके
अहं चिन्तितवती तत्र आगमः अकारात् पूर्वमेव कथम् आगच्छति इति तत्र नमुट् आगमः टित् अस्ति अतः आद्यन्तौ टकितौ इत्यनेन पूर्वम्
आगच्छति
आम् आम्
करेक्ट्
पुनः भगिनि किम् उक्तवती
तत्र आगमस्य विषये महोदय कुत्र आगमः भवति इति अस्माकम् अस्माभिः निर्धारयितुं तत्र सूत्राणि आवश्यकानि तत्र टित् नमुट् इति टित् अस्ति अन्ते ते स्थितस्य टकारस्य आरोपः भवति इत् भवति अतः टित् अस्ति चेत् तत्र एकं सूत्रम् अस्ति आद्यन्तौ टकितौ इत्यनेन तेन यस्य आगमः अस्ति तस्मात् पूर्वम् आगच्छेत् आदौ आगच्छति पूर्वं कित् अस्ति चेत् अन्ते आगच्छति इत्युक्ते तत्र यस्य ककारस्य ककारस्य इत् भवति ते कित् भवन्ति तादृशः आगमः अस्ति चेत् अन्ते भवति
अन्ते भवति अस्तु धन्यवादः भवति अस्तु समीचीनम् अस्तु तर्हि तत्र तर्हि तत्र सन्धिपुस्तके यत् दत्तमस्ति तत् कृतवन्तः तर्हि इदानीम् अग्रे सरामः तर्हि तत्र गृह्णन् उन्मेषन् तत्र तत्सर्वं कृतवन्तः खलु तत्र युञ्जन् एवं तत् कृतवन्तः वा
तत्र महोदय पेज् 39 मध्ये
रिक्तस्थाने
मध्यभागे तत्र अतः ह्रस्वात् इति न पठितवन्तः यत्र तस्मात् आरभ्य
अस्तु तर्हि तत्र पुषाधिपति भगिनी भवति एव
अतः ह्रस्वात् परतः यः नकारः णकारः नकारश्च अस्ति तदन्तात् पदात् स्वरे परे तस्मात् पूर्वं क्रमात् न इत्येते आगमाः भवन्ति नकार णकार नकार इत्येतेषां द्वि द्विरुच्चारणम् इत्युक्ते किं महोदय द्विवारम् इति उच्चारणं
द्विः उच्चारणं
द्वि
तत्र विसर्गस्य
चारणं भवति इति फलितोर्थः यदा अहं वयं
पठतु पठतु भगिनि तत्र
अस्तु अस्तु नम् प्रत्याहारेण न इत्येतेषां ग्रहणं भवति उट् इत्यत्र उकारः उच्चारणार्थे त इत्यस्य लोपः नम् योग उट् नमुट् इति आगमः भवति अतः नमुडागमसन्धिः इति नाम अत्र नमुडागमसन्धि इत्युक्ते किम् अत्र दत्तमस्ति नम् प्रत्याहारे अस्ति यदा ह्रस्वात् परतः नकार णकार नकार अस्ति चेत् अनन्तरं तदन्तात् पदात् स्वरे परे क्रमेण न इत्येते आगमः रूपेण आगच्छति अनन्तरं द्विवारम् उच्चारणं भवति यदा फलम् अहं वयं प्राप्नुमः तत्र द्विवारम्
उच्चारणं नाम अन्तिमार्थः
द्विवारम् उच्चारणं भवति पदस्य अनन्तरं तदेव उट् इत्यत्र उकारः केवलं उच्चारणार्थे अस्ति तकारस्य लोपः भवति इत्संज्ञा इति भूत्वा अतः नम् योग उट् नमुट् इति आगमः भवति अतः वयं नमुडागमसन्धि इति वयं सन्धेः नाम भवति
सन्धेः नाम नमुडागम समीचीनम् अस्तु समीचीनम् अस्तु अग्रे तत्र तर्हि उषास्वामिनाथन् भगिनि अग्रे
महोदय रिक्तस्थानानि पूरयत
तत्र पुस्तके यत् आसीत् इदानीमेव कृतवन्तः तदस्ति चेत् तत्र उक्त्वा अग्रे गच्छतु भगिनि
तिर्यङ्ग् अत्र तिर्यङ्ग् अत्र ओके ओके देन् अग्रे द्वितीयम् अस्ति विशीतन् नितम् इति विशीतन् नितम् इति सो विशीतन् योगः इदम् इति भवति निषीदन् योगः इदम् इति कृते नकारः द्विवारण उच्चारणं भवति ङमो ह्रस्वात् अचि ङमुट् नित्यम् इत्यनेन, यतोहि नकारात् विशन् इति कृते नकारात् पूर्वं ह्रस्व अकारः अस्ति विषीदन् इति, अनन्तरम् अचि अस्ति इकारः, सो इकारात् पूर्वम् अन्य नकारः अपि आयाति विषीदन् निदम् इति भवति,
निषीदन् निदम्. समीचीनं. प्रथमे अध्याये एव अस्ति.
अस्तु महोदय. कृपया परया विष्टः विषीदन्निदमब्रवीत् अर्जुन उवाच दृष्ट्वे मम स्वजनं कृष्ण युयुत्सुं समुपस्थितम् अस्तु विषीदन् इति अस्ति विषीदन् इदं विषीदन्निदं विषीदन् इदं कृपया परया विष्टः विषीदन् इदम् अब्रवीत् अग्रे अर्जुन उवाच दृष्ट्वा इमं स्वजनं कृष्ण युयुत्सुं समुपस्थितं सञ्जय उवाच कौन्तेयः कृपया परया विष्टः इति कौन्तेयः अर्जुनः कृपया परया विष्टः अर्जुनः कौन्तेयः विषीदन् विषीदन् इति शत्रुप्रत्ययान्त शब्दः प्रथमाविभक्ति एकवचनं कौन्तेयः विषीदन् कौन्तेयः विषीदन् अपि च कौन्तेयः कृपया परया विष्टः कृपया इत्युक्ते करुणया परया कृपया इति लाट् आफ् हौ डु ऐ
तत्र परा कृपा इति
या परया इति तृतीया परया कृपया भावः परया
कीदृशी कृपा परा कृपा
आम् सो परया कृपया कौन्तेयः परया कृपया आविष्टः आविष्टः इति चेत्
तत्र प्रत्ययः
आम् आविष्टः सो कौन्तेयः कृपया परया आविष्टः अब्रवीत् इस् आल् कौन्तेयः विषीदन् इदम् अब्रवीत् हि सेड् दिस् दिस् विषीदन् इदम् अब्रवीत्
इति समीचीनं भगिनि अत्र यथा पूर्वम् अस्माकं चर्चा अभवत् तत्र नाम तत्र रुदन् आयातः इति तत्र प्रायशः विशेषणविशेष्यभावः भवेत् इति किन्तु अत्र तु विषीदन् तदनन्तरम् इदम् इति
इदं
तत्र विशेषणविशेषभावः नास्ति
विषीदन् इदं विषीदन् इदं ङमुटागमः सन्ति अत्र विषीदन् इदम् अब्र विषीदन् इदम् अब्रवीत्
अब्रवीत् इति समीचीनम्
अर्जुन उवाच दृष्ट्वा इमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ओके इमं स्वजनं दृष्ट्वा हे कृष्ण दृष्ट्वा इमं स्वजनं कृष्ण यु अन् देन् इट् कण्टिन्यूस् ओके सीदन्ति मम गात्राणि मुखं च परिशिष्यति
तर्हि तस्य संवादस्य आरम्भः इदानीं समीचीनं भगिनि धन्यवादः अग्रे तर्हि तत्र वेदा भगिनी अग्रे
सर्वस्मिन् एवं कृतवन्तः तत्र सन्धिपुस्तके उदाङ्गिः अपि कृतवन्तः अनिच्छन् अपि तद्
तत् कुर्मः समीचीनम्
अनिच्छन् अपि तत्र अनिच्छन् तत्र नकार अन्तिमवर्णः नकार अस्ति तस्य पूर्व ह्रस्व स्वरः अस्ति परे अ अस्ति अच् वर्णः अस्ति इति कारणतः ङमो ह्रस्वादचि ङमुण् नित्यम् इति सूत्रेण तत्र नकारस्य आगमः भवति द्विवारं नकार भवति न न योग अ न भवति अनिच्छन्नपि इति रूपम् आयाति अनिच्छन्नपि द्विवारम् उच्चारणं भवति तत्र अनिच्छन्नपि अस्तु तत्र 3.36 भगवद्गीतायां 3.36 अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः अच्छा अर्जुनः वदति अथ केन प्रयुक्तः अयं पापं चरति पुरुषः वार्ष्णेय इति कृष्णम् उद्दिश्य वदति केन प्रयुक्तः अयं पापं चरति पुरुषः केन प्रयुक्त इत्युक्ते केन कारणेन केन कारणेन पापं चरति पुरुषः किं पापं करोति केन कारणेन अथ केन कारणेन पुरुषः पापं करोति अनिच्छन्नपि बलादिव नियोजितः ते न इच्छन्ति तदपि ते पुरुषः च पुरुषः इति बहुवचनं नास्ति न पुरुषः एकवचनमेव तदेव ते सः तत् पापं कर्तुं न इच्छति चेदपि तद् कोऽपि कारणतः कोऽपि कारणतः इति वदामि वा किं वदामि बलादिव कोऽपि बलात् अस्ति चेत् बलात् नियोजितः इति
बलादिव नियोजितः नाम तत्र बलेन कोऽपि तत्र तत्र कारयति तत्र ओ तत्र करोतु इति बलात् कारयति तत्र बलात् इव नियोजितः नियोजितः नाम तत्र युक्तः तत्र
पुरुषः न इच्छन्ति पापं करणीयमिति न इच्छन्ति परन्तु ते पापं करोति किमर्थं चेत् बलात् सः पापं करोति
यद्यपि न इच्छति
अस्तु
अनिच्छन्नपि अतः एव तत्र एतत् कथं भवति किमर्थं भवति इति प्रश्नः सः न इच्छति किन्तु
किमर्थं
पापम् अभवत् तत्र अभवत् पापम् अभवत् भवति एव तत् तर्हि किमर्थम् इति प्रश्नः समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र शोभा भगिनि अग्रे
आं महोदय अग्रिमं करणीयं
अग्रिमं वयं कृतवन्तः धारयतु
तर्हि तत्र पदमस्ति धारयन् अचलम् इति पदच्छेदं कुर्मः चेत् धारयन् इति तत्र शत्रन्तपदं भवति अचलम् इति तत्र लङ्लकाररूपं चल् धातोः अचलम् इति तत्र उत्तमपुरुषे धारयन् इति नम् प्रत्याहारस्थवर्णः अन्ते पदान्ते तस्मात् पूर्वं ह्रस्वाकारः अपि च पदात् उत्तरम् उत्तरे अकारः अस्ति अचुवर्णः अतः तत्र अकारस्य नकारात् आगमः भवति धारयन् योगः नकारः योगः अचलं धारयन् अचलम् इति भवति अपि च श्लोकः अस्ति तत्र षष्ठाध्याये एकक्षणं महोदय षष्ठाध्याये
अच्छा
धारयन् अचलम् इति भवेत् तत्र समं कायशिरः ग्रीवं धारयन् अस्तु समं कायशिरः ग्रीवं धारयन् अचलं स्थिरः सम्प्रेक्ष्य नासिका अग्रं स्वं दिशः च अनवलोकयन् इति श्लोकः तत्र धारयन् अचलम् इति पदं प्रथमवाक्ये भवति तत्र समम् अचलं कायशिरः ग्रीवं कायः इत्युक्ते देहः शिरः शरीरं देहः शिरः इत्युक्ते जानीमः शिरः ग्रीवम् इत्युक्ते नेक् इति दत्तमस्ति धारयन् इति शत्रन्तपदं स्थिरः इति जानीमः यत् स्थिरः यः स्थिरः स्थिरः दिशः न धारयन् स्थिरः दिशः अन् अवलोकयन् अनवलोकयन् तत्रापि शत्रन्तपदम् अनवलोकयन् इत्युक्ते अवलोकनं न कुर्वन् च स्वं नासिका अग्रं स्वस्य नासिका अग्रं नासिकाग्रे सम्प्रेक्ष्य इत्युक्ते तत्र दृष्टिं तत्र स्थापयित्वा नासिकाग्रे
नासिकाग्रायाम् अग्रे नासिकाग्रे तत्र दृष्टिं स्थापयित्वा
ब्रह्मचारी तत्र एव तत्र एव स्थिरः भवेत् दृष्टिः
स्थाप्य
ब्रह्मचारी व्रते इत्युक्ते व्रतः इत्युक्ते तत्र यत् नियमेन पालयामः श्रद्धा श्रद्धया भक्त्या नियमेन यत्
ब्रह्मचारी पदं तत्र कुत्र अस्ति भगिनि
अग्रिमे श्लोके अस्ति भगिनि
ओ अग्रिमे श्लोके
तत्र विगतभिर्ब्रह्मचारी व्रते स्थितः मनः संयम मच्चित्तो युक्त आसीत्
तत्सर्वं करणीयं वा महोदय अथवा
एतत् समीचीनं यत् भवती उक्तवती तावदेव तर्हि तत्र धारणावलोकयन्
अनवलोकयन् तावत् खलु
तावदेव तावदेव
अनवलोकयन् अस्तु
इत्युक्ते
तत्र तत्र अन्वयः अस्ति समं कायशिरग्रीवं धारयन् समम् इत्युक्ते तत्र किं तत्र स्ट्रेट् इति भवति
समम् अचलं
दृढं भवेत्
धारयन् तत्र समम् अचलं द्वयमपि तत्र क्रियाविशेषणं
धारयन्
अचलं धारयति
नासिकाग्रं
स्वं नासिकाग्रं
स्वं नासिकाग्रं
सम्प्रेक्ष्य
स्वं किं तत्र अवलोकयन् तावत्पर्यन्तम् अस्तु अचलम् अभवत् स्थिरः सम्प्रेक्ष्य नासिकाग्रं स्वं दिशः च अनवलोकयन् तत्र स्वम् इति स्वस्य इति भवति तत्र स्वं नासिकाग्रं तत्र विशेषविशेषणं स्वं नासिकाग्रं सम्प्रेक्ष्य दिशः च न अवलोकयन् अनवलोकयन् दिशः तत्र बहुवचने दिशः इति
इत्युक्ते कान्सन्ट्रेशन् इति विषये वदति
वा
अनवलोकयन् इति तावत् अस्ति अस्मिन् श्लोके
तावदेव सत्यं भगिनि
योगविषये
इत्युक्ते कथं ध्याने भवितव्यम् इत्युक्ते एतादृशं आसनम् आसनम् एतादृशम् आसनं भवेत् इति वदति
महोदय ब्रह्मचारी व्रते एव खलु महोदय सो द योगी इस् द वन् Yogi comes from the verse number 10. Yogi injita satatam. And then shuchau deshe pratishtapya.
Satyam, satyam bhagini.
Tastadhyaya tatra sanyasa yoga ha khalu bhagini.
Meditation, dhyana yoga.
Dhyana yoga.
Dhyana yoga.
Samichinam. Astutari. Yani magre कः तत्र हा उषाधिपति भगिनी हा
आं महोदय रुदन् कृतवन्तः अतः संयोगः अव्ययात्मा अव्ययात्मा सन् सन् इति पदस्य नकार अनुनासिकनकारः नम् प्रत्याहारे अस्ति नकारात् पूर्वं ह्रस्व अकारः अस्ति अव्ययात्मा इति पदस्य प्रथमवर्णः अकारः अच् प्रत्याहारे अस्ति ह्रस्वात् नमः पदात् नुमुट् अचि नित्यम् इति सूत्रेण आगमरूपेण नकार आगच्छति सन् योगः न योगः अव्ययात्मा सन्नव्ययात्मा इति रूपम् आगच्छति अन्तिमरूपं श्लोकः अस्ति चतुर्थ अध्याये अष्टम
षष्ठश्लोकः
षष्ठश्लोकः अजोऽपि सन्नवै सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वमादिष्टाय सम्भवाम्यात्ममायया अजोऽपि इत्युक्ते अजः अपि सन्नव्ययात्मा सन् अव्यय आत्मा भूतानाम् ईश्वरोऽपि सन् सन्निद्र अस्ति इति सन्
शत्रुन् इति अस् धातोः शत्रुन्तरूपं नाम
शत्रुन्तरूपम्
अजोऽपि सन् नाम अजः अपि अस्ति इत्युक्ते यद्यपि यद्यपि
यद्यपि
यद्यपि
प्रकृतिं स्वमादिष्टाय
स्वाम् इति
स्वां योगः अधि अधिष्ठाय सम्भवामि आत्मा मायया इति अस्ति पदच्छेदम् इत्युक्ते कृष्ण वदति इति मन्ये अजोपि यद्यपि अहं जन्म अविनाशी अस्मि जन्म नास्ति तथापि
अन्यत् अस्ति अव्ययात्मा
अव्ययात्मा इत्युक्ते अविनाशी इति दत्तमस्ति
नाम परिवर्तनमेव न भवति
न भवति
अव्ययात्मा
भूतानां भूतानां
इति विभक्तिका तत्र
षष्ठी बहुवचने भूतानाम् अपि
न भूतानाम् अपि इति नास्ति
भूतानाम् ईश्वरः अपि
नाम
भूतानाम् इत्युक्ते नरः जन्म प्राप्नोति
भूतानाम् इत्युक्ते
भूतानाम्
भूतानाम् ईश्वरः इत्युक्ते
परमेश्वरः इति ईश्वरः इत्युक्ते परमेश्वरः
नाम तत्र राजा इव खलु नाम सर्वे तस्य अधीने सन्ति खलु नाम सः एव ईश्वरः भूतानाम् ईश्वरः नाम सर्वे जीवाः सर्वे जीवाः ये सन्ति लोके
तेषाम् ईश्वरः परमेश्वरः
ईश्वरः
महोदय तत्र
यः जन्म
जन्यानाम् इति वक्तुं शक्नुमः किम्
जन्यानां सत्यं सत्यं हा न्यायशास्त्रस्य
आम्
प्रभावः इदानीम्
आमां
सत्यं भगिनि हा जन्यानां हा जन्यानां हा तत्र भूतानाम् इति हा तत्र तेषाम् ईश्वरः अपि सन् अपि नाम अस्ति
अस्ति प्रकृतिं स्वाम स्वाम् अधिष्ठाय
स्वाम् स्वाम् इति स्वाम्
अधिष्ठाय सम्भवामि सम्भवामि युगे युगे इति अस्ति न महोदय लैक् अवतार
समीचीनं भगिनि अवतरति भगवान् अवतरति अवतरति कथम् अवतरति
दिव्यरूपेण इति
तत्र न अत्र आत्ममाय
इत्युक्ते आदिदिव्यरूपेण लैक्
नाम तत्र आत्ममाय नाम तत्र न कोऽपि ज्ञातुं शक्नोति कथं सः अवतरति इति नाम तत्र ओ सः नाम तत्र यदि केवलम् उदाहरणार्थं वदामि तत्र कोऽपि किमपि भवनम् अस्ति कोऽपि भवनात् बहिः आगच्छति सः तत्र टेन्त् फ्लोर् मध्ये आसीत् किन्तु कथं सः अधोभागे आगतवान् इति न जानीमः खलु तत्र सोपानेन आगतवान् वा इति खलु तादृश
भगवति कुत्र
भगवान् हा सत्यं भगिनि तत्र सः किं कथं सः अवतरति इति वयं न जानीमः अतः तत्र
आत्ममाया कृष्ण सीरियल् लैक् हि कम् फ्रम् नो वेर् महोदय लैक्
केवलं सीरियल् मध्ये नास्ति भगिनि लोके अपि तादृशमेव
माया माया
सत्यं भगिनि तथैव तर्हि सीरियल् मध्ये सम्यक् रीत्या तत्र प्रदर्शितवन्तः तथैव अस्ति खलु भगिनि हा तर्हि तत्र सम्भवामि सम्भवामि तत्र प्रकृतिं स्वाम् अधिष्ठाय चतुर्थी
अधिष्ठाय इत्युक्ते
ओ तत्र चतुर्थी इति नास्ति क्षम्यतां हा अधिष्ठाय इति तत्र चतुर्थी नास्ति खलु अत्र अधिष्ठाय क्षम्यतां हा मम दोषः हा लेप् हा अधिष्ठाय हा सत्यं भगिनि हा हा एतत् कृत्वा प्रकृतिम् अधिष्ठाय आत्ममायया सम्भवामि
सम्भवामि
इति अस्ति समीचीनम् अस्तु तर्हि तत्र भगवान् यद्यपि तत्र अजः अस्ति अव्यय आत्मा अस्ति भूतानाम् ईश्वरः अस्ति तथापि तत्र तस्य अवतार भवति नाम ओ कृष्णजन्माष्टमी इति वयम् आचरामः यद्यपि सः अजः अस्ति इति समीचीनं
भवति मम पार्श्वे मराठीभाषायां पुस्तकम् अस्ति महोदय
कस्य
भगवद्गीतायाः
अस्तु अस्तु भगिनि हा
यद्यपि मे आजन्मा तथा अविनाशी हूँ और यद्यपि मे समस्त जीवों का स्वामी हूँ तो भी प्रत्येक युग में मैं अपने आदि दिव्य रूप में प्रकट होता हूँ
अस्तु भगिनि हा अस्तु उत्तमं धन्यवादः भगिनि हा धन्यवादः तत् हिन्दी आसीत् वा अथवा मराठी
मराठी अस्ति महोदय
अस्तु अस्तु भगिनि अहम् अवगतवान् अतः अहं चिन्तितवान् अस्तु प्रायशः हिन्दी अस्ति इति अस्तु धन्यवादः भगिनि हा अग्रे तत्र हा उषास्वामिनाथन् भगिनि भवती एव अग्रे
महोदय निमिषन् अपि इति दत्तं निमिषन् योगः अपि इति निमिषन्नपि इति निमिषन् नकारः ङं प्रत्याहारे अस्ति निमिषन्नपि अकारात् पूर्वं नकारः नकार आगमः भवति निमिषन्नपि नकारः द्वयः द्वि उच्चारणं भवति निमिषन्नपि निमिषन्नपि इति भगवद्गीताश्लोकः
एतत् प्रायश पूर्वं पठितं पठितः श्लोकः इति श्लोकः
पठामि वा
पठतु पठतु एकवारं समीचीनं
प्रलपन् ओके प्रलपन् विसृजन् गृह्णन् नुन्मिषन् निमिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि प्रलपन् अपि विसृजन् अपि गृह्णन् अपि निमिषन् अपि उन्मिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् युक्तः अथवा योगी इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति चिन्तित्वा सः योगी नैव किञ्चित् करोमि इति मन्येत इति मन्येत विधिलिङ् नैव किञ्चित् करोमि इति मन्ये युक्तः मन्येत तत्त्ववित् युक्तः तत्त्ववित् मन्येत युक्तः तत्त्ववित् मन्येत इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इन्द्रियाणि तस्य गोचराः तत्तत् गोचराः कृते एव वर्तन्ते इति चिन्तित्वा लेटिम् होल्ड् दट् धारयन्
सत्यं तथैव हा इति तत्र अहं किमपि इति अस्ति इति धारयन् तत् दृढया तादृशं दृढचिन्तनं कृत्वा तत्र अहं किमपि न करोमि इति
यद्यपि प्रलपन् विसृजन् गृह
तत्र क्रियाः भवन्ति
सर्वे शत्रन्तपथं नुम्मागमः भवति नकारः प्रथमा विभक्ति उगितचां सर्वनामस्थाने अदातो
अन्तिमे किम् उक्तवती भगिनि भवती
प्रलपन् विसृजन् गृह्णन् प्रलपत् इति प्रलपन् इति भवति विसृजत् इति विसृजन् इति भवति अत् शत्रुप्रत्यय ऋकारः फर् द फैव् सर्वनामस्थान प्रथमाविभक्ति एकवचनं द्विवचनं बहुवचनं द्वितीयविभक्ति एकवचनं द्विवचनं धनुम् आगमा कम्स् बै उगितचां सर्वनामस्थाने अधातोः ऐ थिङ्क् 71 78 or 77
उत्तमं भगिनि धन्यवादः धन्यवादः भगिनि हा एतत् मम मनसि तु नास्ति एव हा धन्यवादः
धन्यवादः महोदय
अस्तु तर्हि इदानीम् अग्रे सरामः तर्हि तत्र एतावत् तत्र नमूडागमसन्धिः कृतः इदानीं तत्र पूर्वसवर्णसन्धिः तदनन्तरं छत्वसन्धिः इति अपि अस्ति तत्र सन्धि किमस्ति सन्धिपरम्परा सन्धिकुटुम्बः तत्र बृहान् कुटुम्बः अस्ति अस्तु तर्हि तत्र इदानीं प्रायशः तत्र करपत्रे अहं किम् उक्तवान्
पूर्वसवर्ण
अहं परसवर्ण इति उक्तवान् समितं पूर्वसवर्णसन्धिः इति अग्रे अस्तु तर्हि तत्र वेदा भगिनी आरम्भं करोति वा
आं महोदय कुत्र एकनिमिषः
करपत्रे भगिनि
करपत्नेय
नवम उपशीर्षकः
एकनिमिषः पूर्वसवर्णसन्धि तद् न ओके पूर्वसवर्णसन्धिः झयो होन्यतरस्याम् अष्टमे अध्याये चतुर्थपादे द्विषष्टितमं सूत्रं झयः उत्तरस्य हकारस्य विकल्पेन पूर्णसवर्णादेशो भवति झयप्रत्यहारस्य उत्तरस्य हकारस्य विकल्पेन पूर्णसवर्णादेशो भवति झयः पञ्चम्यन्तं हः षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रम् उदः स्तम्भोः पूर्वस्य इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः अन्यतरस्याम् इत्युक्ते विकल्पेन अनुवृत्तिसहितसूत्रं जयः हः पूर्वस्य सवर्णः अन्यतरस्याम् इत्युक्ते एतत् सूत्रं वदति झय प्रत्याहारस्थवर्णः अस्ति चेत् तस्य परे यदि हकार अस्ति तत्र पूर्वस्य सवर्णः विकल्पेन पूर्णसवर्णादेशः भवति हकारस्य विकल्पेन पूर्वसवर्णादेशः भवति इति उक्तं तद् किमिति उदाहरणं दत्तम् यद्यपि झै इत्युक्ते सर्वाणि अनुनासिकवर्गीयव्यञ्जनानि अनुनासिकवर्गीयवन झ झ इत्युक्ते झबगणदश् झबै कुत्र झबै झबगणदश्
अननुनासिक
अननुनासिक चिन्तितवती किम् इति ओके यद्यपि झै इत्युक्ते सर्वाणि अननुनासिकवर्गीयव्यञ्जनानि तथापि अत्र सर्वत्र जलाम्झशोन्ते इत्यनेन जष्ट्वं कृत्वा तृतीयसदस्यादेशो भवति अस्तु तत्र किमस्ति चेत् यदि झय् इत्युक्ते सर्वाणि अनुनासिक अननुनासिकवर्गीयव्यञ्जनानि अस्ति झ आरभ्य कपै यकार तत्र चतुर्थ तृतीय द्वितीय प्रथम वर्गस्य वर्णाः आयान्ति तत्र परन्तु किमदति तत्र हकारस्य स्थाने झै वर्णः आयाति परन्तु तत्र उक्तं जलां जक्षोन्ति इत्यनेन जष्ट्वं कृत्वा तृतीयसदस्य आदेशः एव भवति प्रथमद्वितीय तृतीयचतुर्थवर्गस्य आदेशः भवितुम् अर्हति परन्तु जलां जक्षोन्ति सूत्रेण तत्र केवलं तृतीय सदस्य आदेशः एव भवति उदाहरणेन धर्म्यात् योग हि तत्र धर्म्यात् झलां जशोन्ते इत्यनेन धर्म्याद् योगः हि वणिक् योगः हसति झलां जशोन्ति इत्यनेन वणिक् हसति तत् योगहितं झलां जशोन्ति इत्यनेन तद् हितं तत्तु केवलं तदेव दत्तं परन्तु तस्य रूपम् अन्तिमरूपं किम् अस्ति इति न दत्तं वा अग्रे दत्तं वा
समीचीनं भगिनि तावत् पर्यन्तं धन्यवादः भगिनि नाम इदानीं वयं जानीमः तत्र वर्गीयव्यञ्जनम् अस्ति पूर्वं किन्तु तत्र तृतीयसदस्यस्य आदेशः भवति प्रथमसोपाने इति अस्तु धन्यवादः भगिनि हा इदानीम् अग्रे तत्र शोभा भगिनी अग्रे
आम् आं महोदय अन्यच्च अवधेयं यत् हकारस्य पूर्वसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः इत्युक्ते नादः घोषः संवारः महाप्राणः इति कारणतः सामान्यतया सावर्ण्यं ज्ञायते मुखस्य स्थानेन परन्तु यत्र स्थानेन निर्णयः असम्भवः तत्र अभ्यन्तरप्रयत्नः प्रयुज्यते यत्र अभ्यन्तरप्रयत्नः प्रयुज्यते यत्र अभ्यन्तरप्रयत्नेन निर्णयः असम्भवः तत्र बाह्यप्रयत्नः प्रयुज्यते हकारस्य स्थानम् अस्ति कण्ठः किन्तु अननुनासिकवर्गीयव्यञ्जनेषु एकैकस्मिन् वर्गे सर्वेषां स्थानं समानम् इति कारणतः स्थानेन निर्णयः अशक्यः हकारस्य अभ्यन्तरप्रयत्नः ऊष्माणः ष स ह इत्येव ऊष्माणाः अतः अनेन निर्णयः असम्भवः हकारस्य बाह्यप्रयत्नः नादः घोषः संवारः महाप्राणः इति नादः घोषः संवारः इति अस्ति वर्गीयव्यञ्जनानां तृतीयचतुर्थपञ्चमाः च सदस्याः तेषु केवलं चतुर्थसदस्यः महाप्राणः अतः हकारस्य स्थाने तद्वर्गस्य चतुर्थसदस्य आदेशः भवति अत्र बाह्यप्रयत्नः इत्यनेन एव निर्णयः सम्भवति
अस्तु
अस्तु तत्र अवधेयं यत् अस्ति हकारस्य पूर्वसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः भवति इति तत्र अयं शास्त्रं किम् अस्ति तत्र उच्चारणस्थानानि तत्सर्वं तद् तस्य विषये उक्तं तत्र नादः तत्र व्यञ्जनानाम् अपि च स्वराणां विभक्तिं कृतमस्ति ते विभक्ताः सन्ति तत्र किम् इत्युक्ते प्रथमं तु मुखस्य स्थाने यत्र सामान्यतया सावर्ण्यं ज्ञायते मुखस्य स्थानेन तेन निर्णयं न भवति चेत् आभ्यन्तरप्रयत्नः प्रयुज्यते तदपि तेनापि निर्णयः न भवति चेत् तत्र बाह्यप्रयत्नः प्रयुज्यते एतेषां वर्णानां कुत्र कुत्र एते सर्वे एतानि सर्वाणि कार्याणि भवन्ति इति हकारस्य विषये तस्य स्थानं कण्ठः अस्ति हकारस्य स्थानं कण्ठः यथा तत्र कण्ठः तालु मूर्धन्य एते सर्वे सन्ति हकारस्य स्थानः कण्ठः अस्ति किन्तु अनुनासिकवर्गीयव्यञ्जनेषु अननुनासिकवर्गीयव्यञ्जनेषु एकैकस्मिन् वर्गे सर्वेषां स्थानं समानम् इति कारणतः स्थानेन निर्णयः अशक्यः अननुनासिक वर्गीयव्यञ्जनेषु कवर्गीयात् आरभ्य चवर्गीय तवर्गीय पवर्गीय टवर्गीय एते सर्वे वर्गीयव्यञ्जनेषु सर्वे तेषां सर्वेषां स्थानं समानम् अस्ति कुत्र
नाम तत्र कवर्गीयव्यञ्जने व्यञ्जनानां स्थानं समानम् अतः तत्र सावर्ण्यं तत्र पूर्वतन वर्णस्य तत्र कः वर्णः भवेत् नाम सावर्ण्यं तत्र कस्य भवेत् इति निर्णयः न कर्तुं शक्नुमः यतोहि
हा इत्युक्ते तत्र प्रथमं किम् उक्तं मुखस्य स्थानेन इत्युक्ते आभ्यन्तरप्रयत्नः इति तत्र वर्णाः
मुखस्य स्थानं दृष्ट्वा अत्र निर्णयः न कर्तुं
न भवति तदनन्तरं यत् आगच्छति तदस्ति आभ्यन्तरप्रयत्नः आभ्यन्तरप्रयत्ने किं
अत्र हकारस्य इति वाक्ये
आभ्यन्तरप्रयत्नः तत्र हकारः कुत्र अस्ति इत्युक्ते कथं वदनीयं यत्र
तत्र हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः
किन्तु तत्र ष ते अपि आगच्छन्ति अपि च
ऊष्माणः तत्र वर्गीयव्यञ्जनेषु ऊष्माणः न सन्ति
हा इत्युक्ते तत्र उच्चारणस्थाने हकारः किम् आसीत् कण्ठः आसीत् कण्ठः इत्युक्ते तत्र कवर्गीयव्यञ्जनानि अपि च अनुनासिक ते अकारः तत्र तु असम्भवः तेन निर्णयितुम् असम्भवः भवति तदनन्तरम् आभ्यन्तरप्रयत्ने तत्र हकारः ऊष्माणः अस्ति तत्र ष ते अपि सन्ति अपि च तत्र अपि असम्भवः भवति इति कृत्वा अग्रे किं कृतवन्तः बाह्यप्रयत्नः प्रयुज्यते इति इदानीं बाह्यप्रयत्ने कर्कषव्यञ्जनानि सन्ति खर् इति, मृदुव्यञ्जनानि सन्ति हश् इति, स्वराः अपि सन्ति. तत्र इदानीं हकारः मृदुव्यञ्जनेषु दृश्यते तत्र. अपि च हकारः महाप्राणः अस्ति, महाप्राणेषु व्यञ्जनेषु योजितः अस्ति. अपि च संवारः, नादः, घोषः अपि अस्ति. इत्युक्ते अन्ततो गत्वा हकारस्य महाप्राणत्वम् अस्ति, संवारत्वम् अस्ति, नादत्वम् अस्ति, घोषत्वमपि अस्ति. तत्र यत् उक्तम् अन्ते तत्र प्रयुज्यते, हकारस्य स्थानमस्ति कण्ठः, तत् पठि चर्चितवन्तः. हकारस्य आभ्यन्तरप्रयत्नः ऊष्मणः इति अपि, अपि च श अस्ति तेषु अन्यतमः अस्ति इति अपि चर्चितवन्तः. इदानीं तत्रापि असम्भवः, हकारस्य बाह्यप्रयत्नः नादः, घोषः, संवारः, महाप्राणः. तत्र नादः, घोषः, संवारः इति अस्ति वर्गीयव्यञ्जनानां तृतीयचतुर्थपञ्चमाः च सदस्यः. इत्युक्ते तत्र घ, झ, ध, ध, भ एते झष् वर्णाः अपि सन्ति तस्मिन् केटगरी इति किं वदामः, तस्मिन् केटगर्याम् अस्ति
तत्र सत्त्वम् अथवा समूहः,
समूहे. धन्यवादः महोदय. तस्मिन् समूहे ते अपि सन्ति, ते एव तत्र तृतीयचतुर्थपञ्चमाः च सदस्याः इति. पञ्चमाः वा तृतीय, अस्तु तृतीय पञ्चमाः कथं भवन्ति तत्र, ते तु अनुनासिकाः सन्ति. अस्तु ते मृदु हश्वर्णाः एव, किन्तु अल्पप्राणाः सन्ति ते अनुनासिकाः. तर्हि तेषु केवलं चतुर्थसदस्याः महाप्राणः. अस्तु केवलं चतुर्थसदस्याः महाप्राणः इत्युक्ते घ, झ, ढ, ध, भ इति. अतः हकारस्य स्थाने तद्वर्गस्य चतुर्थसदस्य आदेशः भवति. अत्र बाह्यप्रयत्नः इत्यनेन एव निर्णयः सम्भवति. इत्युक्ते अतः तत्र झष् इति वर्णः चतुर्थसदस्यादेशः भवन्ति, ते चतुर्थस्तम्भे सन्ति वर्णेषु. अतः हकारस्य स्थाने तद्वर्गस्य चतुर्थसदस्य आदेशः भवति क्रमम् अनुसृत्य अत्र. अतः बाह्यप्रयत्नेन एव निर्णयः सम्भवति.
अत्र अस्मिन् सन्धौ तत्र बहु किमपि दत्तमस्ति करपत्रे, अतः तत्र
किमर्थं हकारस्य तुल्यतमवर्णः चतुर्थवर्गीय वर्गे
इति एव तत्र विवरणमेव दत्तमस्ति भगिनि, किन्तु पुनः तत्र अग्रिमे वर्गे पुनः चर्चां कुर्मः.
अस्तु
बहु दीर्घ तत्र विवरणं दत्तं, किन्तु अग्रिमे सप्ताहे पुनः चर्चयामः.
तत्र महोदय मुख्यतया उच्चारणस्थानानि पश्यामः, अपि च आभ्यन्तरप्रयत्नः पश्यामः, अन्ते बाह्यप्रयत्नाः पश्यामः इति.
हा सत्यं भगिनि. हा सामान्यम् इत्युक्ते तत्र सर्वत्र सामान्यम् इति भवेत्, अथवा आधारेण एतेषाम् आधारेण तत्र तत्र सवर्णस्य निर्णयं भवति. वदतु
तुल्यस्य प्रयत्नं,
तुल्यस्य
प्रयत्नं सवर्णं
सत्यं. त्रीणि कार्याणि अत्र भवन्ति. प्रथमं स्थानम् अस्ति, अनन्तरं
आभ्यन्तरप्रयत्नः,
अनन्तरं आभ्यन्तरप्रयत्नः,
बाह्यप्रयत्नः,
बाह्य आभ्यन्तरप्रयत्नः
इति अस्ति भगिनि. हा तादृशम् अस्ति सत्यम्. अस्तु तर्हि तत्र
इति किम् अस्ति इति
अग्रिमवर्गे चर्चयामः भगिनि.
अस्तु
तर्हि उषास्वामिनः भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा तदनन्तरं समापयामः
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् धन्यवादः महोदय
नमस्कारः अग्रिमे वर्गे मिलामः नमस्कारः